इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य रात्रौ न्यूयॉर्क नगरे संयुक्त राष्ट्र महासभायां समिट ऑफ द फ्यूचर इति भविष्यते सम्मेलनम् इति कार्यक्रमं सम्बोधयिष्यति। दशमं राष्ट्रमण्डल संसदीय संघ भारत क्षेत्र सम्मेलनम् अद्य नवदिल्ल्यां समारब्धम्। सर्वोच्च न्यायालयेन प्रोक्तं यत् व्यक्तिगत रूपेण बालैः सम्पृक्तानां अभद्र चलचित्राणां दर्शनं पॉक्सो अधिनियमस्य उल्लंघनम् अस्ति। नेशनल पीपल्स पावर इति दलस्य प्रमुखः अनुरा कुमार दिसानायके अद्य श्रीलंकादेशस्य नवमः कार्यकारी राष्ट्रपति रूपेण शपथवचनं स्वीकृतवान्। अपि च प्रातः अद्य लेबनाने जातेषु इजराइल देशस्य प्रहारेषु न्यूनातिन्यूनं शतं जनाः मारिताः, चतुश्शततः अधिकाः जनाः व्रणिताश्च। इदानीं वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी अद्य रात्रौ न्यूयॉर्के संयुक्त राष्ट्र महासभायां समिट ऑफ द फ्यूचर इति कार्यक्रमं सम्बोधयिष्यति। शिखर सम्मेलनस्य विषयो विद्यते उत्तम भविष्याय बहुपक्षीयं समाधानम् इति। शिखर सम्मेलनम् अतिरिच्य प्रधानमन्त्री अनेकैः विश्वनेतृभिः सह द्विपाक्षिक वार्तां करिष्यति, अपि च परस्पर हिताधारितेषु विषयेषु चर्चां करिष्यति। श्वः स्वयात्रायाः द्वितीये दिने प्रधानमन्त्री मैसाचुसेट्स प्रौद्योगिकी संस्थानेन आयोजिते वर्तुलोत्पीठिकाख्ये सम्मेलने प्रौद्योगिकोद्योगस्य नेतृभिः साकं वार्तालापम् अकरोत्। उद्योग प्रमुखान् सम्बोधयन् श्रीमोदी अवदत् यत् एकविंशतितमः शताब्दः तन्त्रज्ञानचालितः अस्ति, अपि च मानवकल्याणार्थं तन्त्रज्ञानस्य लोकतान्त्रिकमूल्यैः सह सामञ्जस्यम् आवश्यकम् अस्ति। प्रधानमन्त्री अवदत् यत् सः तान् सर्वदा सशक्तभारतस्य विकासयात्रायां सहयात्रीरूपेण सहभागीरूपेण च पश्यति। सः दृढविश्वासं प्रकटितवान् यत् मिलित्वा भारतामेरिका देशयोः प्रौद्योगिकी संस्थाः वैश्विक समस्याः दूरीकर्तुं महत्वपूर्णां भूमिकां निर्वहन्ति। सीईओएस इत्यनेन भारतेन सह निवेशाय सहयोगाय च प्रबलरुचिः प्रकटिता। अवधेयं वर्तते यत् प्रधानमन्त्रिणा गतरात्रौ न्यूयॉर्क नगरे भारतीय समुदायस्य विशाल जनसम्मर्दः अपि सम्बोधितः। एतदतिरिच्य श्रीमोदी नेपालस्य प्रधानमन्त्रिणा कुवैत देशस्य युवराज्ञा फिलिस्तीन देशस्य राष्ट्रपतिना च सह द्विपाक्षिकं संवादम् अकरोत्।
शायद ही जीवन का कोई क्षेत्र ऐसा होगा जिसको अब टेक्नोलॉजी ड्राइव न करती हो, लेकिन ऐसे समय में टेक्नोलॉजी प्लस डेमोक्रेसी, इसका एक संतुलन बहुत जरूरी है, क्योंकि डेमोक्रेटिक वैल्यूज और टेक्नोलॉजी का मिलना मानव कल्याण की गारंटी देता है, एक विश्वास पैदा करता है। एंड टेक्नोलॉजी माइनस डेमोक्रेसी किसी भी संकट के लिए एक वातावरण पैदा कर देता है। और भारत एक देश है जिसके पास टैलेंट भी है, डेमोक्रेसी भी है, मार्केट भी है।
द्विदिवसीयं दशमं राष्ट्रमण्डल संसदीय संघ भारत क्षेत्र सम्मेलनम् अद्य नवदिल्ल्यां समारब्धम्। अस्य सम्मेलनस्य विषयो विद्यते सतत समावेशी विकास प्राप्तौ विधायी निकायानां भूमिका इति। सर्वोच्च न्यायालयेन प्रोक्तं यत् व्यक्तिगत रूपेण बालैः सम्पृक्तानां अभद्र चलचित्राणां दर्शनं पॉक्सो अधिनियमस्य उल्लंघनम् अस्ति, अपि च तेन देशस्य सर्वे न्यायालयाः आदिष्टाः सन्ति यत् ते कस्मिन्नपि न्यायिकादेशे निर्णये च बाल पोर्नोग्राफी इत्यस्य शब्दस्य प्रयोगं न कुर्युः। शीर्षन्यायालयेन अद्य मद्रास उच्चन्यायालयस्य तम् आदेशं विरुध्य एषः निर्देशः प्रख्यापितः अस्ति, यस्मिन् प्रोक्तमासीत् यत् बालैः सम्पृक्तानां वयस्कचलचित्राणां दर्शनं पॉक्सो इत्यस्य अधिनियमस्य अन्तर्गतं न ग्रहीष्यति। नेशनल पीपल्स पावर इति दलस्य प्रमुख अनुरा कुमार दिसानायके अद्य श्रीलंकादेशस्य नवमः कार्यकारी राष्ट्रपतिरूपेण शपथवचनं स्वीकृतवान्। अद्य प्रातः राष्ट्रपति सचिवालये शपथग्रहण समारोहः जातः। विपक्षस्य नेता सजित प्रेमदासा इत्येतं विरुध्य विहितस्य निर्वाचनस्य अनन्तरं 50-वर्षीयेन श्रीदिसानायके वर्येण विजयः एषः समधिगतः। निर्वाचनम् अस्य अभूतपूर्व निर्वाचनस्य मतगणनायाः अनन्तरं निवर्तमान राष्ट्रपतिः रानिल विक्रमसिंघे वर्यः पराजितो भूत्वा अपदस्थः जातः। प्रधानमन्त्रिणा नरेन्द्रमोदिना श्रीलंकायाः राष्ट्रपति निर्वाचने विजयाय अनुरादिसानायके वर्यः वर्धापितः अस्ति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज ऑन एआईआर इति चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। आयुष्मान भारत प्रधानमंत्री जनारोग्य योजनायाः अद्य 6 वर्षाणि व्यतीतानि। 18-2000 अस्मिन्नेव दिवसे प्रधानमन्त्रिणा नरेन्द्रमोदिना झारखण्डस्य रांचीनगरे एषा योजना समारब्धा आसीत्। अस्याः योजनायाः उद्देश्यं 37,12,00,000 परिवाराणां न्यूनातिन्यूनं 55,00,000,000 लाभार्थिभ्यः प्रतिवर्षं 5,00,000 रूप्यकाणां स्वास्थ्य सुरक्षा प्रदानम् अस्ति। केन्द्रीय पर्यावरण वन जलवायु परिवर्तन मन्त्री भूपेन्द्र यादवः एकहोराभ्यन्तरं 5,00,000 अधिकानां वृक्षाणाम् आरोपणस्य विश्व कीर्तिमत् प्राप्तुं प्रादेशिक सेनायाः 28,00,000 इन्फैंट्री बटालियन इत्यस्मै इकोलॉजिकल टास्क फोर्स इत्यस्मै च वर्धापनानि अयच्छत्। एकस्मिन् सामाजिक संचारपटले श्री यादवः प्रोक्तवान् यत् सुरक्षाबलैः ह्यः जैसलमेर क्षेत्रे विशिष्ट वृक्षारोपणाभियानान्तर्गतं न्यूनातिन्यूनं 25,000+ वृक्षाः रोपिताः सन्ति। सः प्रोक्तवान् यत् प्रधानमन्त्रिणः एक पेड़ मा के नाम इति अभियानस्य अन्तर्गतम् अयम् उपक्रमः आयोजितः आसीत्, यस्योद्देश्यं स्थानीय समुदायानां मध्ये पर्यावरण जनजागरणस्य संवर्धनम् अस्ति। प्रशासनं पलाण्डूनां मूल्यं न्यूनीकर्तुं विपण्यां पलाण्डूनां विक्रयणं करिष्यति। नवदिल्ल्याम् एकस्मिन् वार्ताहर सम्मेलने उपभोक्ति विषयक विभागस्य सचिवा निधि खरे इत्येषा निगदितवती यत् बृहत्तमे संग्रहणे उचितमात्रायां पलाण्डवः उपलब्धाः सन्ति। अनया भणितं यत् प्रशासनस्य पलाण्डूनां मूल्येषु दृष्टिरपि अस्ति, अपि च अस्मात् सप्ताहात् राज्यानां राजधानीषु प्रमुखेषु नगरेषु च समर्थन मूल्येषु पलाण्डूनां विक्रयणं भविष्यति इति। आम आदमी पार्टीति दलनेत्री आतिशी अद्य दिल्ल्याः मुख्यमंत्री पदभारं स्वीकृतवती। दिल्ल्याः उपराज्यपालेन वीके सक्सेना इत्यमुना विगत सप्ताहे आतिशी इत्यस्यै मन्त्रिपरिषदे च पदगोपनीयतायाः शपथवचनं प्रदत्तम्। ध्येयं वर्तते यत् आतिशी दिल्ल्याः कालकाजी विधानसभाक्षेत्रात् सुषमा स्वराज इत्येतस्याः, कांग्रेसदलस्य च शीला दीक्षित इत्यस्याः अनन्तरं दिल्ल्याः तृतीया महिला मुख्यमन्त्रित्वेन नियुक्ता अस्ति। चलचित्र निर्मात्र्याः किरण राव इत्यस्याः हास्य चलचित्रं लापता लेडीज इति सर्वोत्तम वैदेशिक चलचित्र वर्गे 25,000+ ऑस्कर पुरस्काराय भारतस्य आधिकारिक प्रविष्टित्वेन चितमस्ति। भारतीय चलचित्र महासंघेन पुष्टीकृता यत् निर्देशकस्य जाहनू बरुआ इत्यस्य नेतृत्वे 13-सदस्ययुतया समित्या आमिर खान किरण राव इत्युभाभ्यां निर्मितस्य चलचित्रस्य चयनप्रक्रियायां ऐक्यमतेन निर्णयः अयं गृहीतः। लापता लेडीज इत्यस्मिन् निर्मिते निर्णायकमण्डलस्य प्रशस्तिपत्रे लिखितमस्ति यत् चलचित्रमिदं भारतीय महिलानां वैविध्यपूर्ण सकारात्मकीं मानसिकतां प्रदर्शयति, यत् अधीनता प्रभुत्वयोः मिश्रणं प्रकटयति। भारतर्तु विज्ञान विभागेन आगामिषु 3 दिवसेष् कर्णाटक महाराष्ट्र गोवा राज्येभ्यः अतिवृष्टि संचेतना प्रख्यापिता अस्ति, अपि च आगामिषु 4 दिवसेष् मध्यपूर्व पूर्वोत्तरीय भागेष् अतिवृष्टि परा संचेतना अनुमानिता इति वार्ताः।